रात्रिर्गता मतिमताम्बर मुञ्चशय्यां धात्रा द्विधैव ननुधूर्जगतो विभक्ता तामेकतस्तव बिभर्ति गुरुर्विनिद्रः तस्या भवान् अपरधुर्यपदावलम्बी।
रात्रिरिति हे मतिमतां वर बुद्धिमतां श्रेष्ठ निर्धारणे षष्ठी रात्रिः गता शय्यां मुञ्च विनिद्रो भव इत्यर्थः। विनिद्रत्वस्य फलमाह धात्रेति धात्रा ब्रह्मणा जगतः धूः भारः धूः स्याद् यानमुखे भारे इति यादवः। द्विधैव द्वयोरेव इत्यर्थः। एवकारः तृतीयनिषेधार्थः। विभक्ता ननु विभज्य स्थापिता खलु तत्किमत आह तां धुरं एकतः एकत्र कोटौ तव गुरुः पिता विनिद्रः सन् बिभर्ति तस्याः धुरः भवान् धुरं वहतीति धुर्यः भारवाही तस्य पदं वहनस्थानं अपरं यद्धुर्यपदं तद् अवलम्बत इति अपरधुर्यपदावलम्बी। अतो विनिद्रो भवा इत्यर्थः। नहि उभयवाह्यमेको वहतीति भावः।
निद्रावशेन भवताप्यनवेक्षमाणा पर्युत्सुकत्वमबला निशिखण्डितेव लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरुचिं विजहाति चन्द्रः।
निद्रेति चन्द्रारविन्दराजवदनादयः लक्ष्मीनिवासस्थानानि इति प्रसिद्धिमाश्रित्य उच्यते। निद्रावशेन निद्राधीनेन स्त्यन्तरासङ्गोऽत्र ध्वन्यते भवता त्वया पर्युत्सुकत्वमपि त्वयि अनुरक्तत्वमपि इत्यर्थः। प्रसितोत्सुकाभ्यां तृतीया च इति सप्तम्यर्थे तृतीया। अपि शब्दः तद्विषयानुरागस्य अनपेक्ष्यत्वद्योतनार्थः। निसि खण्डिता भर्तुरन्यासङ्गज्ञानकलुषिता अबलेव नायिकेव ज्ञातेऽन्यासङ्गविकृते खण्डिता ईर्ष्या कषायिता इति दशरूपके। अनवेक्षमाणा अविचारयन्ती सती उपेक्ष्यमाणा इत्यर्थः। ह्यनवेक्षमाणा इति पाठे निद्रावशेन भवता अनवेक्ष्यमाणा अनिरीक्ष्यमाणा कर्मणि शानच् लक्ष्मीः प्रयोजककर्त्री येन चन्द्रेण प्रयोज्येन पर्युत्सुकत्वं त्वद्विरहवेदनां भर्तृजन्यविरहवेदनां च कालाक्षमत्वमौत्सुक्यं मनस्तापज्वरादिकृत् इति अलङ्कारे। विनोदयति निरासयतीति योजना शेषं पूर्ववत्। नाथस्तु निजर्धोपपत्तिमपश्यन् इमं पक्षमुपैच्छिष्ट लक्ष्मीः येन चन्द्रेण सह त्वदाननसदृशत्वादिति भावः। विनोदयति विनोदं करोति विनोदशब्दात् तत्करोति तदाचष्टे इति णिच् सादृश्यदर्शनादयो हि विरहिणां विनोदस्थानानि इति भावः। सः चन्द्रोऽपि दिगन्तलम्बी पश्चिमाशान्तगतः सन् अस्तङ्गच्छन्नित्यर्थः। अत एव त्वदाननरुचिं तव मुखकान्तिं विजहाति त्वन्मुखसादृश्यं त्यजति इत्यर्थः। अतः निद्रां विहाय तां लक्ष्मीम् अनन्यशरणां परिगृहाणा इत्यर्थः।
तद्वल्गुना युगपदुन्मिषितेन तावत् सद्यः परस्परतुलाम् अधिरोहताम् द्वे प्रस्पन्दमानपरुषेतरतारमन्तः चक्षुस्तव प्रचलितभ्रमरम् च पद्मम्
तदिति तत् तस्मात् लक्ष्मीपरिग्रहात् कारणात् वल्गुना मनोज्ञेन वल्गु स्थाने मनोज्ञे च वल्गु भासितमन्यवत् इति विश्वः युगपत्तावत् उन्मिषितेन युगपदेव उन्मीलितेन सद्यः द्वे अपि परस्परतुलाम् अन्योन्यसादृश्यम् अधिरोहताम् प्राप्नुताम् प्रार्थनायाम् लोट् के द्वे अन्तः प्रस्पन्दमाना चलन्ती परुषेतरा स्निग्धा तारा कनीनिका यस्य तत्तथोक्तम् तारकाक्ष्णः कनीनिका इत्यमरः तव चक्षुः अन्तः प्रचलितभ्रमरम् चलद्भृङ्गम् पद्मञ्च युगपद् उन्मेषे सति सम्पूर्णसादृश्यलाभः इति भावः
वृन्ताच्छ्लथम् हरति पुष्पमनोकहानाम् संसृज्यते सरसिजैररुणाम् शुभिन्नैः स्वाभाविकम् परगुणेन विभात वायुः सौरभ्यमीप्सुरिवते मुखमारुतस्य
वृन्तादिति विभातवायुः प्रभातवायुः स्वाभाविकम् नैसर्गिकम् ते तव मुखमारुतस्य निःश्वासपवनस्य सौरभ्यम् तादृक् सौगन्ध्यमित्यर्थः परगुणेन अन्यदीयगुणेन साङ्क्रामिकगन्धेन इत्यर्थः ईप्सुः आप्तुमिच्छुः इव आप् ज्ञप्युरुधामीदिति ईकारादेशः अनोकहानाम् वृक्षाणाम् श्लथम् शिथिलम् पुष्पम् वृन्तात् प्रसवबन्धनात् वृन्तम् प्रसवबन्धनम् इत्यमरः हरति आदत्ते अरुणांशुभिन्नैः तरणिकिरणोद्बोधितैः सरसिजैः कमलैः सह तत्पुरुषे कृतिबहुलमिति सप्तम्या अलुक् संसृज्यते सङ्गच्छते सृजेः दैवादिकात् कर्तरि लट्
ताम्रोदरेषु पतितं तरुपल्लवेषु निर्धौतहारगुलिकाविशदं हिमाम्भः आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिरिवत्वदीयम्
ताम्रेति ताम्रोदरेषु अरुणाभ्यन्तरेषु तरुपल्लवेषु द्रुमपल्लवेषु पल्लवोस्त्री किसलयम् इत्यमरः पतितं निर्धौताः याः हारगुलिकाः मुक्तामणयः तद्वत् विशदं स्वच्छम् हिमाम्भः लब्धपरभागतया लब्धोत्कर्षतया परभागो गुणोत्कर्षे इति यादवः अधरोष्ठे त्वदीयं त्वत्सम्बन्धि सदशनार्चिः दन्तकान्तिसहितं लीलास्मितमिव आभाति
यावत्प्रतापनिधिराक्रमतेन भानुः अह्नायतावदरुणेन तमो निरस्तम् आयोधनाग्रसरताम् त्वयि वीर याते किं वारिपूंस्तव गुरुस्वयमुच्छिनत्ति
यावदिति प्रतापनिधिः तेजोनिधिः भानुः सूर्यः यावत् नाक्रमते नोद्गच्छति आङ्ग उद्गमने इति आत्मनेपदम् तावत् भानौ अनुदिते एव इत्यर्थः अह्नाय झटिति द्राग्झडित्यञ्जसाह्नाय इत्यमरः अरुणेन अनूरुणा सूर्यसूतोऽरुणोऽनूरुः इत्यमरः तमः निरस्तम् तथा हि हे वीर त्वयि आयोधनेषु युद्धेषु अग्रसरताम् पुरःसरताम् याते सति तव गुरुः पिता रिपून् स्वयम् उच्छिनत्ति किं वा नोच्छिनत्येव इत्यर्थः न खलु योग्यपुत्र न्यस्तभाराणाम् स्वामिनाम् स्वयं व्यापारखेदः इति भावः
शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्भेरमां मुखरशृङ्खलकर्षिणस्ते येषां विभान्ति तरुणारुणरागयोगात् भिन्नाद्रिगैरिकतटा इव दन्तकोशाः
शय्यामिति उभाभ्यां पक्षाभ्यां विनीता व्यपनीता निद्रा यैः ते उभयपक्षविनीतनिद्राः तत्र समासविषये उभशब्दस्थाने उभयशब्दप्रयोग एव साधुः इति अनुसन्धेयम् यथाह कैयटः उभादुदात्तो नित्यमिति नित्यग्रहणस्य इदं प्रयोजनम् वृत्तिविषये उभशब्दप्रयोगो मा भूत् उभयशब्दस्यैव यथा स्यात् उभयपुत्र इत्यादि भवतीति मुखराणि उत्थानचलनात् शब्दायमानानि शृङ्खलानि निगळानि कर्षन्तीति तथोक्ताः ते तव स्तम्भे रमन्त इति स्तम्भे रमाः हस्तिनः स्तम्भकर्णयो रमिजपोः इति अच् प्रत्ययः हस्तिसूचकयोः इति वक्तव्यम् इभस्तम्भे रमः पद्मी इत्यमरः तत्पुरुषे कृतिबहुलमिति सप्तम्या अलुक् शय्यां जहति त्यजन्ति येषां स्तम्भे रमाणां दन्ताः कोशा इव दन्तकोशाः दन्तकुट्मलाः तरुणारुणरागयोगात् बालार्ककिरणसम्पर्काद् हेतोः भिन्नाद्रिगैरिकतटा इव विभान्ति धातुरक्ता इव भान्तीत्यर्थः
दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्षवनायुदेश्याः वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः
दीर्घेष्विति हे वनजाक्ष नीरजाक्ष वने सलिलकानने इत्यमरः दीर्घेषु पटमण्डपेषु नियमिताः बद्धाः वनायुदेश्याः वनायुदेशोद्भवाः पारसीका वनायुजा इति हलायुधः अमी वाहाः अश्वाः निद्रां विहाय पुरोगतानि लेह्यानि आस्वाद्यानि सैन्धवशिलाशकलानि सैन्धवो लवणविशेषः सैन्धवो स्त्री शीतशिवम् माणिमन्थञ्च सिन्धुजे इत्यमरः तस्य शकलानि खण्डानि वक्त्रोष्मणा मलिनयन्ति मलिनानि कुर्वन्ति उक्तञ्च सिद्धयोगसङ्ग्रहे पूर्वाह्नकाले चाश्वानां प्रायशो लवणं हितम् अरुचिग्लानिशूलघ्नं लवणं सैन्धवं वरम् इति
भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरणपरिवेशोद्भेदशून्याः प्रदीपाः अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्ताम् अनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः
भवतीति म्लानः पुष्पोपहारः पुष्पपूजा म्लानत्वादेव विरलभक्तिः विरलरचनो भवति प्रदीपाश्च स्वकिरणानां परिवेशस्य मंडलस्य उद्भेदेन स्फुरणेन शून्या भवन्ति निस्तेजस्का भवन्तीत्यर्थः। अपि च अयम् मञ्जुवाक् मधुरवचनः पञ्जरस्थः ते तव शुकः त्वत्प्रबोधनिमित्तेन प्रयुक्ताम् उच्चारिताम् नः अस्माकम् गिरम् वाणीम् अनुवदति अनुकृत्य वदतीत्यर्थः। इत्थम् प्रभातलिङ्गानि वर्तन्ते अतः प्रबोद्धव्यमिति भावः।
इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पमुज्झाञ्चकार मदपटुनिनदद्भिः बोधितो राजहंसैः सुरगज इव गाङ्गम् सैकतम् सुप्रतीकः।
इतीत्थम् विरचितवाग्भिः वन्दिपुत्रैः वैतालिकैः पुत्रग्रहणम् समानवयस्कत्वद्योतनार्थम् सपदि विगतनिद्रः कुमारः अजः तल्पम् शय्याट्टदारेषु इत्यमरः उज्झाञ्चकार विससर्ज इजादेश्च गुरुमतोऽनृच्छः इति आम्प्रत्ययः। कथमिव मदेन पटु मधुरम् निनदद्भिः राजहंसैः बोधितः सुप्रतीकाख्यः सुरगजः ईशानदिग्गजः गङ्गायाः इदम् गाङ्गम् सैकतम् पुलिनमिव तोयोत्थितम् तत्पुलिनम् सैकतम् सिकतामयम् इत्यमरः सिकता शर्कराभ्याम् च इति अण्प्रत्ययः। सुप्रतीकग्रहणम् प्रायशः तस्य कैलासवासित्वात् नित्यगङ्गातटविहारसम्भवार्थम् इति अनुसन्धेयम्।
अथ विधिमवसाय शास्त्रदृष्टम् दिवसमुखोचितमञ्चिताक्षिपक्ष्मा कुशलविरचितानुकूलवेषः क्षितिपसमाजमगात् स्वयंवरस्थम्।
अथेति अथ उत्थानानन्तरम् अञ्चितानि रुचिराणि अक्षिपक्ष्माणि यस्य सः अजः शास्त्रे दृष्टमवगतम् दिवसमुखोचितम् दिवसमुखे प्रातःकाले उचितम् करणीयम् विधिम् अनुष्ठानम् अवसाय्य समाप्य श्यतेः न्यन्ताद् ल्यप् कुशलैः प्रसाधनदक्षैः विरचितः अनुकूलः स्वयंवरोचितः वेषः नेपथ्यम् यस्य स तथोक्तः सन् स्वयंवरस्थम् क्षितिपसमाजम् राजसमूहम् अगात् इणोगा लुङीति गादेशः पुष्पिताग्रावृत्तमेतद् तदुक्तम् अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा इति लक्षणात्। इति महामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितया सञ्जीविनीसमाख्यया व्याख्यया समेतः महाकवि श्रीकालिदासकृतौ रघुवंशे महाकाव्ये अजस्वयंवराभिगमनो नाम पञ्चमः सर्गः।